एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री केपी शर्मा ओली आगामिनी वैशाख मासे निर्वाचन सम्पादनस्य विषये न शंकितुम् अनुरुणद्धि। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य अध्यक्षश्च प्रधानमन्त्री ओली गतदिने काष्ठमण्डपे आयोजिते नेकपा दल निकटस्य अनेरा सोव्य विद्यार्थी संगठनस्य मेलने संसद पुनस्थापनस्य चनापसरणस्य वा कापि सम्भावना नास्तीति अवोचत। प्रधानमन्त्री ओली अतर्कयत् नवीन जनादेशाय प्रस्थानम् नेपाली जनतायाः आकांक्षा राष्ट्रस्य आवश्यकता चास्तीति हेतोः कस्यापि अवरोधनेन निर्वाचनम् न रोत्स्यते। प्रधानमन्त्रिणा ओलिना भाषितम् लिम्पियाधुरा लिपुलेख भूभागौ समावेश्य प्रकाशितस्य नवीन मानचित्रस्य अनुसारेण तत्रत्याम् भूमिम् भोगप्रचलने आनेतुम् सर्वकारः प्रतिबद्धो वर्तते। प्रधानमन्त्री ओली अवदत् पश्चात्तने वर्षत्रय नेकपा दलस्य कतिचित् नेतार सर्वकारस्य दल नेतृत्वस्य च विरुद्धे षड्यन्त्र रचने एव व्यस्ता सन्ति इत्यतः दलं दुर्बलं निष्क्रियं च सम्भूतं वर्तते। दलस्य मूल नेतृत्वाय संसूचनेन विना सर्वकारस्य दलस्य च परिवर्तनाय भूयो भूय समूहगत मेलनस्य आयोजने एव नेतारो व्यस्ता सन्तीति प्रधानमन्त्री ओली आरोपयत्। प्रधानमन्त्री ओली युवा विद्यार्थी थिनः अनुशिष्टाः मर्यादिताश्च भूत्वा समाजे उदाहरणीय कार्याणि कर्तुम् अनुरुणत। कार्यक्रमे नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य प्रवक्ता परराष्ट्र मन्त्री च प्रदीप कुमार गेवाली अगदत् दलस्य कतिचित् नेतृणाम् अपूरणीयायाः पदीयाकांक्षायाः कारणेन दलं विभाजनस्य अवस्थायं प्राप्तमस्ति। उद्योग वाणिज्यापूर्ति मन्त्री लेखराज भट्टः अब्रवीत् राष्ट्रस्य स्थायित्वाय नवीन निर्वाचन सम्पादनस्य विकल्पो न विद्यते। संस्कृति पर्यटन नागरिक उड्डयन मन्त्री भानुभक्त ढकालः पश्चात्तन राजनीतिक घटनाक्रमम् आरोहावरोहम् च प्रतिकृत्य अग्रे वर्धितुम् कार्यकर्तृन् अन्वरुणात्। राष्ट्रपति कार्यालयेन प्रधानमन्त्री मन्त्री परिषद कार्यालयेन सभामुख कार्यालयेन च सर्वोच्च न्यायालये प्रतिनिधि सभायाः विघटनस्य कारणसहितानि लिखितोत्तराणि प्रस्तुतानि वर्तन्ते। महान्यायाधिवक्तोः कार्यालयस्य माध्यमेन एतैः कार्यालयैः ह्यो लिखितोत्तराणि पञ्जीकारितानि सन्तीति सर्वोच्च न्यायालयस्य प्रवक्ता भद्रकाली पोखरेलः अज्ञापयत्। प्रधान न्यायाधीशस्य चोलेन्द्र शमशेर जवराभिधस्य न्यायाधीशानाम् हरिकृष्ण कार्किणः विश्वम्बर प्रसाद श्रेष्ठस्य अनिल कुमार सिंहाभिधस्य तेजबहादुर केसी इत्यस्य च सांविधानिक न्यायपीठेन अस्यैव पौषस्य दशमे दिवसे महान्यायाधिवक्तोः कार्यालयस्य माध्यमेन ह्य पौषस्य ऊनविंशम् दिवसम् यावत् लिखितोत्तरस्य प्रस्तुत्यै आदिष्टमासीत्। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य प्रवक्ता ता परराष्ट्र मन्त्री च प्रदीप कुमार गेवाली कथयति दलं सम्प्रति विभक्तं नास्ति। ह्य काष्ठमण्डपे राष्ट्रिय जनसांस्कृतिक महासंघस्य विस्तारितो पवेशे मन्त्री गेवाली कतिचित् मित्राणि पथभ्रान्तानि सन्तीति भाषमाणः त्रुटिं संशोध्य मूलाधारस्य दलोपवेशम् आगन्तुम् अन्वरुणत्। नेकपा दलस्य स्थायी समितेः सदस्यः पेयजल स्वच्छीकरण मन्त्री च मणि थापा पुष्पकमल दाहाल प्रचण्डस्य राजनीतिक भविष्यं समाप्तम् अस्तीति न्यश्चिनोत्। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य महासचिवः अर्थमन्त्री च विष्णुप्रसाद पौडेलः भाषते प्रधानमन्त्रिणः दलाध्यक्षस्य च केपी शर्मा ओलिनो विरुद्धे प्रस्तुतम् आरोपपत्रमेव दलविभाजनस्य प्रमुखाधारो वर्तते। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य रूपन्देही शाखया ह्यो बुटवलस्थाने आयोजितायाम् अग्रणी कार्यकर्तृ मेलायाम् असौ अगदत् नेकपा दले वयस्थानां व्यक्तिनाम् अपेक्षया दलाभ्यन्तराद् एव तीक्ष्णायुधे प्रहरीते सति विभाजनस्य अवस्था दलं प्राप्तमस्ति। नेकपा दलस्य प्रचण्ड नेपाल समूहेन सांगठनिक प्रवृत्तिभ्यो विषयेभ्य अन्तिम रूपं प्रदातुं कार्यदल संघटनाय प्रस्तावः विहितो वर्तते। दलस्य सम्पूर्ण स्तराणां कार्यविभाजन दायित्वादि विषयेभ्य अन्तिम रूपं प्रदातुं अध्यक्षस्य माधव कुमार नेपालस्य संयोजकत्वे कार्यदल संघटनाय प्रस्तावः विहितोऽस्ति। कार्यदलस्य सदस्य प्रवृत्ति विषयेषु अद्य उपविश्यमाणेन उपवेशेन निर्णीयते इति प्रवक्ता नारायणकाली श्रेष्ठः अज्ञापयत्। नेपाली कांग्रेस दलेन प्रतिनिधि सभायाः विघटनस्य विरोधे आन्दोलनस्य कार्यक्रमाः उद्घोषिताः सन्ति। दलसभापतेः शेरबहादुर देउवाभिधस्य सभापतित्वे ह्यः उपविष्टेन केन्द्रीय कार्य समितेः उपवेशेन पौषस्य पञ्चविंश दिवसात् माघस्य अष्टमं दिवसं यावत् विरोध प्रदर्शनस्य कार्यक्रमाः उद्घोषिताः सन्ति। उपवेशेन अस्यैव पौषस्य पञ्चविंशे दिवसे आराष्ट्रं सर्वेषां प्रदेशानां निर्वाचन क्षेत्रेषु माघस्य तृतीय दिवसे पञ्चाशदधिक सप्तशते एव स्थानीय स्तरेषु माघस्य अष्टमे दिवसे वडास्तरे च विरोध प्रदर्शनम् आयोजयितुं निर्णीतमिति दल कार्यालयस्य मुख्य सचिवेन कृष्णप्रसाद पौडेलेन प्रकाशितायं विज्ञप्तौ ज्ञापितं वर्तते। एवमेव उपवेशेन क्रियाशील सदस्यतायाः वितरणाय नवीकरणाय च अन्तिम दिनांकः आगामिनो माघ मासान्तं यावत् निश्चिताः सन्तीति विज्ञप्तौ ज्ञापितमस्ति। केन्द्रीय समिते अपरोपवेश अस्यैव पौषस्य सप्तविंशे दिवसे सोमवासरे दिवा एकवादने दल केन्द्रीय कार्यालये पुनर्व्यवस्था। स्वास्थ्य जनसंख्या मन्त्रालयेन एन्टीजिन नाम्नः प्रतिरक्षकोत्पादन बलद तत्त्वस्य परीक्षणस्य क्रमे पुष्टीभूत कोरोना संक्रमणानां व्यक्तिनां उपचारं कर्तुं कारयितुं च सर्वे चिकित्सालयाः निर्दिष्टाः सन्ति। मन्त्रालयस्य प्रवक्ता प्राध्यापकः डा जागेश्वर गौतमः गतदिवसीय संचार संक्षेप कार्यक्रमे प्रतिरक्षकोत्पादन बलद तत्त्वस्य परीक्षणस्य क्रमे पुष्टीभूत संक्रमणाः व्यक्तिः संक्रान्त व्यक्तिः मत्वा तासाम् उपचारं कर्तुं कारयितुं च कोविड संकट व्यवस्थापन केन्द्रम् सत्तानामेव प्रदेशानां सामाजिक विकास मन्त्रालयान् सर्वान् चिकित्सालयांश्च निर्देष्टुं निर्णीतम् अस्तीति अबोधयत्। नेपाले ह्य अतिरिक्तेषु एकविंशत्यधिक शतचतुष्टय जनेषु कोरोना विषाणोः संक्रमणं पुष्टीभूतं वर्तते। एवमेव ह्य अतिरिक्ताः सप्तत्रिंशदधिक षट्शतं जनाः कोरोना संक्रमणात् मुक्ताः सन्ति। स्वास्थ्य मन्त्रालयस्य अनुसारेण ह्यस्तनावधि प्रतिशतं 10.97 जनैः संक्रमणात् स्वास्थ्यलाभः प्राप्तोऽस्ति। कोरोना संक्रमणस्य कारणेन ह्य अतिरिक्ताः 8 जनाः अम्रियन्त। कोरोना संक्रमणेन विदेशे अतिरिक्तं जनत्रयं मृतमस्ति। आवासीयतर नेपाली संघस्य अनुसारेण सप्ताहेस्मिन् बेलायतदेशे एका पोर्चुगल देशे जनद्वयञ्च नेपालिनो मृताः सन्ति। एतदनु विदेशे कोरोना संक्रमणेन विंशत्यां देशेषु ह्यस्तनावधि 15.7 नेपालिनः मृता इति संघस्य स्वास्थ्य समितेः संयोजकः संजीव सापकोटा अबोधयत्। गृहमन्त्री रामबहादुर थापा भासते राष्ट्रपतेः विद्यादेवी भण्डारिणः विरुद्धे समाघोषकर्तृन् दण्डयितुं निर्दिष्टमस्ति। ह्य अखिल नेपाल महिला संघेन अर्पितं ज्ञापनपत्रं गृह्णन् गृहमन्त्री थापा राष्ट्रपतेः विरुद्धे सार्वजनिक रूपेण अमर्यादिततया समाघोषोच्चारणं विधेः अनुसारेण आपराधिक क्रियाकलापो स्थिति हेतोः सम्बद्ध निकायेन दोषिणः अनुसन्धाय विधेः अनुसारेण दण्डनस्य प्रक्रिया अग्रे वर्धापितेति अज्ञापयत् इति समाचारः।